श्रीराम भुजंग प्रयात स्तोत्रम् विशुद्धं परं सच्चिदानंद रूपं गुणाधारमाधारहीनं वरेण्यं महांतं विभांतं गुहांतं गुणांतं सुखांतं स्वयं धाम रामं प्रपद्ये। शिवं नित्यमेकं विभुं तारकाख्यं सुखाकारमाकारशून्यं सुमान्यं महेशं कलेशं सुरेशं परेशं नरेशं निरीशं महीशं प्रपद्ये। यदा वर्णयत् कर्णमूलेऽन्तकाले शिवो राम रामेति रामेति काश्याम् तदेकं परं तारक ब्रह्मरूपं भजेहं 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 भजेहं। महारत्नपीठे शुभे कल्पमूले सुखासीनमादित्यकोटि प्रकाशं सदा जानकी लक्ष्मणोपेतमेकं तदा रामचंद्रं भजेहं भजेहं। क्वणद्रत्नमञ्जीरपादारविन्दं लसन्मेखलाचारुपीताम्बराढ्यं महारत्नहारोल्लसत्कौस्तुभाङ्गं नदचञ्चरीमञ्जरीलोलमालम् लसच्चन्द्रिकाश्मीरशोणाधराभं समुद्यत् पतङ्गेन्दुकोटिप्रकाशं नमद्ब्रह्मरुद्रादिकोटीररत्नस्फुरत्कादिनीराजनाराधिताङ्घ्रिम्। पुरः प्राञ्जलीनाञ्जनेयादिभक्तान् स्वचिन्मुद्रया भद्रया बोधयन्तम् भजेहं भजेहं सदा रामचन्द्रं त्वदन्यं न मन्ये न मन्ये न मन्ये। यदा मत्समीपं कृतान्तः समेत्य प्रचण्ड प्रकोपैर्भटैर्भीषयेन्मां तदा विष्करोषि त्वदीयं स्वरूपं सदा पत्प्रणाशं सकोदण्डबाणम्। निजे मानसे मन्दिरे सन्निधेहि प्रसीद प्रसीद प्रभो रामचन्द्र ससौमित्रिणा कैकयी नन्दनेन स्वशक्त्यानुभक्त्या च संसेव्यमाना। स्वभक्ताग्रगण्यैः कपीशैर्महीषैः अनेकैरनेकैश्च राम प्रसीद। नमस्ते नमोऽस्त्वीश राम प्रसीद प्रशाधि प्रशाधि प्रकाशं प्रभो माम्। त्वमेवासि दैवं परं मे यदेकं सुचैतन्यमेतत् त्वदन्यं न मन्ये। यतो भूतमेयं विहद्वायुतेजो जलोर्व्याधिकार्यं चरं चाचरं च। नमस्सच्चिदानन्दरूपाय तस्मै नमो देवदेवाय रामाय तुभ्यं। नमो जानकी जीवितेशाय तुभ्यं। नमः पुण्डरीकाय ताक्षाय तुभ्यं। नमो भक्तियुक्तानुरक्ताय तुभ्यं। नमः पुण्यपुञ्जैकलभ्याय तुभ्यं। नमो वेदवेद्याय चाद्याय पुंसे नमः सुन्दरायेन्दिरावल्लभाय। नमो विश्वकर्त्रे नमो विश्वहर्त्रे नमो विश्वभोक्त्रे नमो विश्वमात्रे नमो विश्वनेत्रे नमो विश्वजेत्रे नमो विश्वपित्रे नमो विश्वमात्रे। नमस्ते नमस्ते समस्त प्रपंच प्रभोग प्रयोग प्रमाण प्रवीण मदीयं मनस्वत्पदद्वन्द्वसेवं विधातुं प्रवृत्तं सुचैतन्यसिद्ध्यै शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु प्रसादाद्धिचैतन्यमाधत्त राम नरस्वत्पदद्वन्द्वसेवाविधानात् सुचैतन्यमेतीति किञ्चित्रमत्र पवित्रं चरित्रं विचित्रं त्वदीयं नराये स्मरन्त्यन्वहं रामचन्द्र भवन्तं भवान्तं भरन्तं भजन्तो लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते स पुण्यः स गण्यः शरण्यो ममायं नरो वेदयो देवचूडामणिं त्वां सदाकारमेकं चिदानन्दरूपं मनोवागगम्यं परं धाम राम प्रचण्ड प्रताप प्रभावाभिभूत प्रभूतारिवीर प्रभो रामचन्द्र बलन्ते कथं वर्ण्यतेऽतीव बाल्ये यतो खण्डि चण्डीश को दण्डदण्डम् दशग्रीवमुग्रं सपुत्रं समित्रं सरिद्दुर्गमध्यस्थरक्षो गणेशं भवन्तं विना रामवीरो नरो वा सुरो वा मरो वा जयेत्कस्त्रिलोक्याम् सदा राम रामेति रामामृतं ते सदा राममानन्द निष्यन्दकन्दम् पिबन्तं नमन्तं सुदन्तं हसन्तं हनुमन्तमन्तर्भजेतं नितान्तम् सदा राम रामेति रामामृतं ते सदा राममानन्द निष्यन्दकन्दम् पिबन्नन्वहं नन्वहं नैव मृत्योः बिभेमि प्रसादादसादात्त वैव असीता समेतैरकोदण्डभूषैः असौमित्रिवन्द्यैरचण्डप्रतापैः अलङ्केशकालैरसुग्रीवमित्रैः अरामाभिधेयैरलं दैवतैर्नः अवीरासनस्थैरचिन्मुद्रिकाढ्यैः अभक्ताञ्जनेयादितत्त्वप्रकाशैः अमन्दारमूलैरमन्दारमालैः अरामाभिधेयैरलं दैवतैर्नः असिन्धुप्रकोपैरवन्द्यप्रतापैः अबन्धुप्रयाणैरमन्दस्मिताढ्यैः अदण्डप्रवासैरखण्डप्रबोधैः अरामाभिधेयैरलं दैवतैर्नः हरे राम सीतापते रावणारे खरारे मुरारे सुरारे परेति लपन्तं नयन्तं सदा कालमेवं समालोकयालोकया शेषबन्धो नमस्ते सुमित्रा सुपुत्राभिवन्द्य नमस्ते सदा कैकयी नन्दनेद्य नमस्ते सदा वानराधीशवन्द्य नमस्ते नमस्ते सदा रामचन्द्र प्रसीद प्रसीद प्रचण्ड प्रताप प्रसीद प्रसीद प्रचण्डारिकाल प्रसीद प्रसीद प्रपन्नानुकम्पिन् प्रसीद प्रसीद प्रभो रामचन्द्र भुजङ्गप्रयातं परं वेदसारं मुदा रामचन्द्रस्य भक्त्या च नित्यं पठन् सन्ततं चिन्तयन् स्वान्तरङ्गे स एव स्वयं रामचन्द्रस्य धन्यः स एव स्वयं रामचन्द्रस्य धन्यः।